इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। अष्टमः भारत इण्डोनेशिया संयुक्त आयोगस्य उपवेशनम् ह्यः नवदिल्ल्यां सम्पन्नम्। विदेशमन्त्रिणा डॉ एस जयशंकरेण तस्य इण्डोनेशिया देशस्य समकक्षीयेण सुगियोनो इत्यनेन च सभायाः सहाध्यक्षता कृता। भारत इण्डोनेशिया देशौ राजनैतिक रक्षा सुरक्षा समुद्रीय व्यापार निवेशः औषधीय स्वास्थ्य सेवाः डिजिटल ऊर्जा सम्पर्कः अन्तरिक्षम् शिक्षा दूतावास संस्कृति क्षेत्रम् इत्यादीनाम् विविध क्षेत्रेषु सहकारं सुदृढं कर्तुं चर्चितवन्तौ। उभौ नेतारौ परस्पर हितानां क्षेत्रीयस्य वैश्विकस्य च विषयेऽपि विचाराणाम् आदान प्रदानम् अकुरुताम्। डॉक्टर जयशंकरः स्वस्य प्रारंभिक भाषणे उक्तवान् यत् उभयोः राष्ट्रयोः मध्ये संयुक्त आयोगः चतुर्णां वर्षाणाम् अन्तरालस्य अनन्तरम् आहूयते। अस्मिन् उपवेशने द्वैपाक्षिक सम्बन्धेषु महती प्रगति अभवत्। लोकसभायाः अध्यक्षः ओम बिरला वर्यः अद्य चण्डीगढ़नगरे कॉमनवेल्थ संसदीय संघस्य CPA इत्यस्य भारतक्षेत्रस्य त्रिदिवसीय मण्डल द्वितीय सम्मेलनस्य उद्घाटनं करिष्यति। अस्य सम्मेलनस्य आयोजनं हरियाणा विधानसभया क्रियते। अस्मिन् कार्यक्रमे राज्यसभायाः उपसभापतिः हरिवंशः, राज्यस्य मुख्यमंत्री नायब सिंह सैनी, हरियाणा विधानसभायाः अध्यक्षः हरविंदर कल्याणः, सम्पूर्णदेशस्य पञ्चदश विधानमण्डलानां पीठासीन उपपीठासीन अधिकारिणः, विधानसभायाः सदस्याः च उपस्थिताः भविष्यन्ति। राष्ट्रिय परीक्षा अभिकरणेन NTA इत्यनेन अस्मिन् मासे एकविंशतिदिनांके आयोक्ष्यमाणस्य 26,000 नीट यूजी पुनः परीक्षायाः कृते परीक्षानगरसूचनापत्रं प्रकाशितम्। पुनः परीक्षाः अपराह्ने द्वितः सायं सपाद पञ्चवादन पर्यन्तं भारतस्य 150+500 नगरेषु 14 विदेशेषु च भविष्यन्ति। NTA इत्यनेन स्पष्टीकृतं यत् परीक्षा नगर सूचना पत्रं प्रवेशपत्रं नास्ति, अपितु केवलं अभ्यर्थिनां परीक्षा केन्द्र ज्ञानाय सूचना एव अस्ति। अभिकरणेन अभ्यर्थिनः प्रार्थिताः यत् ते परीक्षायाः प्रवेशपत्रस्य विमोचनस्य च विषये नवीनतमानां घोषणानां कृते स्वस्य आधिकारिक जालपटले अद्यतनीयाः भवेयुः। विश्वस्य बृहत्तमा सार्वजनिक वित्त पोषित स्वास्थ्य आश्वस्ति योजना आयुष्मान भारत प्रधानमंत्री जन आरोग्य योजनायाः कार्यान्वयन राज्येषु पश्चिम बंगाल राज्यं 37वं राज्यं भविष्यति। राज्ये ABPM जय इत्यस्य कार्यान्वयनार्थं अद्य राष्ट्रिय स्वास्थ्य प्राधिकरणं पश्चिम बंगाल सर्वकारश्च सहमतिपत्रे हस्ताक्षरं करिष्यतः। नवदिल्ल्यां केन्द्रीय स्वास्थ्य परिवार कल्याण मन्त्रिणः JP Nadda तथा पश्चिमबंगस्य मुख्यमन्त्रिणः शुभेन्दु अधिकारिणः उपस्थितौ MOU इत्यस्य हस्ताक्षरं भविष्यति। भारतस्य पूर्वोत्तर राज्यैः सह सहकारं सुदृढं कर्तुं द्विदिवसीय यात्रायै यूरोपीय संघस्य उच्चस्तरीय प्रतिनिधिमण्डलम् अद्य असमराज्यस्य गुवाहाटीनगरम् आगमिष्यति। यूरोपीय संघस्य मतानुसारं चर्चाः तेषु विषयेषु केन्द्रिताः भविष्यन्ति यत्र यूरोप देशस्य तथा पूर्वोत्तरस्य च समानहितानि सन्ति। केन्द्रीय गृहमन्त्री अमितशाहः श्वः नवदिल्ल्यां भूपत्तन प्रबन्धन व्यवस्थायाः उद्घाटनं करिष्यति। गृहमन्त्रालयेन उक्तं यत् LPMS इत्यस्य आरम्भः भारतस्य आधुनिक तन्त्रज्ञान सक्षम सीमा प्रबन्धन व्यवस्थायाः कृते महत्वपूर्णं सोपानं भविष्यति। भारतीय मल्ल क्रीडकाः ह्यः मंगोलियायां ओपन क्रीडायां भारतस्य कृते 2 स्वर्णपदके 2 कांस्यपदके च विजितवन्तः। इति वार्ताः।